अस्तु, नमस्सर्वेभ्यः।
नमस्ते।
नमस्कारः। सो लेट्स गेट स्टार्टेड विथ अवर सेशन टुडे। सो विल स्टार्ट विथ अवर प्रेयर। ओम सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। अस्तु, सो we will revise what we have learnt last class before we get started. So I will also cover the Abhyasa Pustakam today. So Abhishek Mahodaya, you are available?
Namaskar Mahodaya.
Namaskarah. So can you please read this page from the screen that is you are seeing right now?
मम नाम सुरेशः, भवतः नाम किम्? मम नाम रामः। मम नाम सुरेशः, भवतः नाम किम्? मम नाम लता। भवतः नाम किम्? मम नाम
One minute. Can somebody stop the audio? There is a background noise.
भवत्याः नाम किम्? मम नाम राधा।
समीचीनम्। Agree, can you also do this?
Balakah, eshah balakah, savriddhah, vriddhah, ganeshah, eshah ganeshah, sah govindah.
Saminjinam.
आरक्षकः, एषः आरक्षकः, सः सैनिकः।
सः सैनिकः। समीचीनं महोदय,
धन्यवादः।
अस्तु, अग्रे so what do we refer that is far away? How did we refer something that was far away?
Sah.
Sah. And something that was nearby, what did we use?
Eshah.
Eshah. And what was the question that we asked?
Kah.
Kah. So if something is far away, we used to address or we used to ask sah kah, and something that is nearby, we are using it as yeshah kah. And we also discussed that in Sanskritam there are three forms, right, or three genders: masculine, feminine and neuter gender. So these words are in Sanskritam like this: Pumlingaha, Trilingam, Trilinga and Napunsakalinga. So Pumlinga, Trilinga and Napunsakalinga. So Saha, Yeshaha, Kaha. So this is like he. So something that is far away for the masculine, saha. Something that is nearby, it is yesha. And if you want to ask who is he, then we are saying saha kaha. Yesha kaha, something that is nearby. Or someone with masculine gender who is nearby, we are using yesha kaha. So similarly, we will try to see what all we learned and we'll try to revise this. So, Shubha Bhagini, are you available?
Namaskar, Mohade.
Namaskar, Bhagini. So, can you please read aloud what is given here?
Astu. Saha kaha. Saha syutaha.
Samichinam, agre.
Sa kaha. Saha balakah. Sah kaha sah marjarah.
Samichinam.
Esha kaha. Esha manthanah.
Manthanah. Samichinam agre.
Esha vaidyah.
Esha vaidyah. And what would be the question again?
Esha kaha. Esha vaidyah.
So, Esha, you can, it is like Eshaha Bhagini. So, the Visarga should be pronounced. If you say Esha, it will become Strilingam.
Okay. Eshaha.
Eshaha.
Eshaha. Eshaha. Kaha. Eshaha Vaidyaha.
Samichinam.
Eshaha. Ka. Kaha. Aishah Deepah.
Yeshah Kaha. Yeshah Deepah. Samichinam. Dhanyavadah. Agre Krishnamurti Mahodaya Astiva. Krishnamurti Mahodaya.
Mahodaya, I forgot to unmute. I'm here.
Asta Mahodaya, can you please do this?
Yes. Saha kaha, saha chashakaha. Eshaha kaha, eshaha padaha. Eshaha kaha, eshaha darpanaha. Saha kaha, saha parvataha. Eshaha kaha, eshaha arakshakaha.
Samichina Mahodaya, dhanyavad.
Dhanyavad Mahodaya.
Agre Arun Mahodaya.
Ha Mahodaya. Saha kaha, saha chamasaha. Saha kaha, saha devalayaha. Saha kaha, saha danta kurchaha.
Kurchaha.
Kurchaha. Saha kaha, saha kurmaha. Yesha kaha, yesha vrikshaha.
Yeshaha.
Yeshaha vrikshaha.
Samichinam Mahodaya, samichinam. Dhanyavad Mahodaya.
Dhanyavad.
Astu. So these are the masculine words that we have seen. And syutaha, syutaha ityukte bag. Ityukte means. Ityukte artha means. The meaning of ityukte is means. Syutaha ityukte bag. Balakaha ityukte boy. Marjaraha ityukte cat. Manthanaha ityukte churner. Vaidyaha ityukte doctor. Deepaha ityukte lamp. Chashakaha चषकः इत्युक्ते ग्लास् अर् टम्ब्लर् पादः फीट् पादः फीट् दर्पणः दर्पणः इत्युक्ते मिर्रर् पर्वतः इत्युक्ते हिल् आरक्षकः इत्युक्ते पोलिस्मेन् चमसः इत्युक्ते स्पून् चमसः इत्युक्ते स्पून् देवालयः देवालयः इत्युक्ते टेम्पल् दन्तकूर्चः इत्युक्ते ब्रश् कूर्मः इत्युक्ते टार्टोय्स् वृक्षः इत्युक्ते ट्री अस्तु सो दिस् इस् वाट् द वर्ड्स् आल्सो मीन् एण्ड् वी हेव् यूस्ड् सः एषः टु रेफर् टु दीस् वर्ड्स् सः इत्युक्ते समथिङ्ग् दट् इस् far away in the masculine form and eshah is actually referencing the object that is nearby in the masculine form eshah and the question is kah eshah kah sah kah astu then we have seen what are these words and how these words are referred to so these words are referring to some nouns and the words that we have used are essentially pronouns and these are called as sarvanama shabdah are something that is being referred to some object or something that is used to refer to some object are sarvanama shabdah are pronouns right so eshah sah this is masculine so next thing that we will try to understand is how these forms are right vrukshah कूर्मः चषकः रामः बालकः आल् दीस् थिङ्ग्स् आर् सौण्डिङ्ग् वित् अह एट् द एण्ड् आफ् द वर्ड् एट् द एण्ड् आफ् द वर्ड् वी आर् सौण्डिङ्ग् एस् अह मोस्ट् आफ् द टैम्स् दिस् इस् वाट् इस् वि आर् फैण्डिङ्ग् रैट् अधिकतया इण्डिकेटिङ्ग् मेजारिटि आफ् द टैम्स् आर् मोस्ट्लि अधिकतया दीस् वर्ड्स् आर् ending with aha the sound is coming as aha so whenever we see Aru. This kind of ending for the word we are calling them as akarantah pumlinga shabdah akarantah pumlinga shabdah so what does it mean the ending of the word is what is being referred to is what is aha akarantah right that is why it is called as akarantah the ending is a and then there is a visarga akarantah umlinga shabdah so the words are generally classified based on how they are ending and the maheshwara sutranis are also taken there but we will not deal with the advanced grammar here but generally please remember the words are identified as masculine or feminine or neuter mostly by the ending of the word and then how the rules are formed that for that we have to understand the grammar for now the generic rule is if we kind of identify the word by its ending that is what would be considered as the classification of the word so what is happening here vrukshah so in vrukshah a is coming ah right so this is why this is the akarantah pullingah shabdah akarantah pumlingah shabdah as the ending here plus akarantah pumlinga shabdah vrukshah koormah dantakoorchah jamasah arakshakah parvatah darpanah padah chashakah deepah vaidyah manthanah marjarah balakah स्यूतः रामः अस्तु सो वाट् एवर् वर्ड्स् देट् वी हव् सीन् आर् जनरली इन् दिस् फार्म् अह एण्ड् हेन्स् दीस् वर्ड्स् आर् क्लास् आर् काल्ड् एस् अकारान्तः पुंलिङ्गः शब्दः अस्तु सो दिस् इस् वाट् इस् मास्कुलैन् जेण्डर् एण्ड् दे आर् काल्ड् एस् पुंलिङ्गशब्द नेक्स्ट् वी विल् ट्रै टु अण्डर्स्टाण्ड् द न्यूटर् जेण्डर् वर्ड्स् द न्यूटर् जेण्डर् वर्ड्स् are called as napunsakalinga shabda napunsakalinga shabda and how are we going to ask what is that for a neuter gender word right? So we will say tat kim. Previously it was kaha, now it is becoming kim. What is that? We want to ask, what is that? Tat kim. Similarly, something that is nearby, we will say etat kim. Tat kim, etat kim. Tat kim, etat kim. This is how we are going to ask. So here we are seeing there is an object, and that object is essentially an aeroplane. So we are going to ask as tat kim, and the answer would be tat vimanam. Tat kim, tat vimanam. If it was nearby, we would have asked etat kim, etat vimanam. Etat kim, etat vimanam. Tat kim, tat vimanam. Etat kim, etat vimanam. So I would request everybody to repeat this thing twice. Etat kim, etat vimanam. Tat kim, tat vimanam. Etat kim, etat vimanam. Tat kim, tat vimanam. Asto, so this is a new word for us, and this is in the neuter gender. For the masculine gender, it was eshaha saha, eshaha kaha. It will be in neuter, it will be etat kim. And something that is far away, saha kaha, for here it will, for neuter it will be tat kim. Okay, that would be the difference between neuter gender and the masculine gender, the way it is being asked and the way it is being referenced or it is pointed out.
Sir, just want to understand one, you know, like one quick thing. Is there a thumb rule which will, you know, help you understand from a Sanskrit questioning perspective that for what entities you should use the masculine thing, for what you should use neutral, for what you should use the upcoming feminine thing? Because even if, you know, go to the questions which were like masculine, not everything was actually a male gender, right?
Right. So, here, this will come in the initial stages with the practice. The reason is, before we try to understand, and what used to happen in the olden days is, when people started learning Sanskrit, parallelly they used to also learn the grammar. Okay, so at that point of time, certain things were revealed or kind of clarified, because you kind of understand how the structure of Sanskrit is. So in order to understand the structure or how the language has been derived, we have to understand Panini's rules. So without understanding the Vyakaranam, this would not reveal itself, and only it will come by practice. So for the initial stages, it is better to understand a little bit of Sanskritam, and if possible, it is also good to know some the Vyakaran classes or attend Vyakaran classes. But now they are gone into a little bit of advanced classes, so that might not be there. But if something gets started, or if you get a notification about Vyakaran classes, please try to attend them also. Initially, it will be kind of, you know, something that you might not understand. But as you go further into the classes, all these things are classified. And the fundamental thing to understand the Vyakaran classes are the Maheshwara Sutrani. So we have to know what are those Maheshwara Sutrani and how they are arranged. Because whatever we see here, or the word endings, or what is happening here, are coming from Maheshwara Sutrani only. So how this is ending is coming from, again, from Maheshwara Sutrani. What is this word? Which kind of words can end, and what is the form it will take? And why is this called as so and so? All this logical reasoning is already there in Maheshwara Sutrani. Everything is structured very logically. And without any doubts, it has been structured, and every rule clarifies itself and how it is dependent on the previous rule. So those rules help in identifying why this is like this. So for that, all of the grammar, entire things that we are learning, whether the origination of the word, the ending of the word, or the form of the word, all these are attributed to Panini's grammar. So Panini's Maharshi's grammar has to be known in order to understand why Sanskritum is laid out like this. So, but for now, that is something that will be taught in some other classes. So if you are interested, please reach out to Arbindo Mohadya. He will provide what classes are running there, and then you can start attending those classes as well. But for now, why is this happening like this, or what is the ending or the kind of identification for us? How do we learn in the beginning is to understand how this is ending. Aha. So we understood something that is aha is akaranta pumlinga shabdaha. So this is, that is why we said, mostly if something that is aha is generally attributed to the masculine gender or the pumlinga shabdaha. Similarly, here we see vimanam, right? So most of the times we see napunsaka linga words are ending in this form, am. When you say am at this end, the sounding of the word is am at the end, you will be able to identify why this, or we'll say this is napunsaka lingam. Why it is happening, again we have to go to the Panini's grammar, but something that is sounding as am in our interactions that we do, we will see that this is basically a napunsaka linga shabda. And similarly, there are rules for, or trying to identify how that is there for the feminine gender as we go forward, we'll see that also. Right? So,
thank you. Go ahead.
So, initial stages, we will not try to focus on the rules of the grammar, but we will try to understand using the colloquial sense. How do we speak? We will try to understand that. Okay. That way we will try to identify some of the things and why certain things, if we see exceptions, right? There will be definitely exceptions and we'll come across them. Why this word is classified as masculine, even though it is ending in some other sense, or something is ending in aha, but that may be presented as a feminine gender, right? But those would be kind of exceptions to what we are generally learning. But in order to understand the core reason of why they are ending in that form, or why have they taken that form but still classified in some other gender, for that we would have to learn the grammar. Vyakaran plays a very important role in everything that we see right now, whether it be speaking or whether it be formation of the words or the meaning associated to the words or how the union of the words is taking place. So that will be addressed in the grammar. And also it is very logical. As I said, it is very logical, very foolproof. Everything has been explained very clearly by Panini Maharshi in the exposition of the grammar. That becomes very clear. Asto?
Thank you.
Asto Mahodaya. So here, the first word that we have come across in the Napunsaka Linga is Tat, and the second word is Kim, and then we are asking what is this object. Tat Kim Tat Vimanam. Tat Kim Tat Vimanam. Astu, so we will try to practice this. Lalita Bhagini Astiva.
Tat kim tat vimanam. Tat kim tat vimanam. Etat kim etat vimanam. Etat kim etat vimanam. Mahode, I am new to this class. Today only I joined.
I'm agree.
So last class, any video, audio, can you share?
Sure, Bhagini. So I'll add you to our group. You are added in the group, I guess. So I'll share the email today again, which will have
okay.
The link to our recordings and the and this PPT presentation. There you will be finding.
There is one doubt. That him means what is that? Correct.
Am Bhagini. What is that? What is
that? What is that? And etat kim means
what is this?
What is this? Okay, okay.
आम भगिनी एतत् इज समथिंग दैट वी
आर धन्यवाद धन्यवाद
आम भगिनी something that we are referring to the nearby objects etat at okay. is something
what
is that
this?
We are okay so here there is a pattern that we see here so for eshah eshah means something that was nearby so eshah for masculine similarly okay. for neuter etat ha eshah
means striling
pullinga pumlinga eshah
pullinga एषः पुल्लिङ्ग एण्ड् एषा स्त्रीलिङ्ग
एषा एषा इस् स्त्रीलिङ्ग एषा एषा
ओके ओके थैंक यू
आम् भगिनि
धन्यवाद
आम् भगिनि अस्तु सो अग्रे नयना भगिनी
Yes, Mahodaya.
Bhagini, can you do this?
Okay. Tata kim, tata pustakam.
So here it is not tata. You don't have to pronounce tata completely. It is for half second. It will become tat.
Okay, tat.
Tat kim.
Tat kim, tat pustakam.
Next one, Bhagini.
तत् किं तत् लोकयानम्
तत् लोकयानं समीचीनम् अग्रे
तत् किं तत् नेत्रम्
नेत्रम्
नेत्रम् तत् किं तत् नेत्रम्
अथवा वाट् इस् द नेक्स्ट् वर्ड् भगिनि
तत् किं तत् नयनम्
नयनं समीचीनं भगिनि
एतत् किम् एतत् किम् एतत् व्यञ्जनम्
व्यजनम्
व्यजनम् एतत् किम् एतत् व्यजनम् एतत् किम् एतत् ऊरुकम्
समीचीनम् ऊरुकं समीचीनं भगिनि अस्तु भगिनि धन्यवादः
धन्यवाद
अग्रे सुधेन्द्रमहोदय सुधीन्द्रमहोदय क्षम्यतां सुधीन्द्रमहोदय
अस्मि एतत् किं तत् किं तत् पुष्पम् एतत् किम् एतत् पत्रम् एतत् किम् एतत् पर्णम् एतत् किम् एतत् दलम् तत् किम् तत् जलम् एतत् किम् एतत् वातायनम् एतत् किम् एतत् द्वारम् एतत् किम् एतत् नगरम्
समीचीनं महोदय धन्यवादः अग्रे सुचेता भगिनी
नमस्कार महोदय
नमस्कार भगिनी
तत् किं तत् सेवफलम् एतत् किम् एतत् द्राक्षफलम् तत् किं तत् नारङ्गफलम् तत् किं तत् कदलीफलम्
कदली
एतत् किम् एतत् आम्रफलम् तत् किं तत् भोजनम्
समीचीनं भगिनि अस्तु धन्यवादः अग्रे किशोर महोदय
यस् एतत् किम् एतत् पयोहिमम् तत् किं तत् फेनकम्
फेनकम्
फेनकम् एतत् किम् एतत् नाणकं तत् किं तत् उपनेत्रं तत् किं तत् भोजनगृहं
भोजनगृहं
भोजनगृहं तत् किं तत् चरणं तत् किं तत् पेषकं तत् किं तत् उदयग्रयाणं
समीचीनं महोदय धन्यवादः
थेङ्क् यु
अस्तु महोदय अग्रे वीणा भगिनी
नमस्कारः महोदय
नमस्कार भगिनि
एतत् किं तत् किम् एतत् किम् एतत् किम् एतत् गृहम् तत् किं तत् मिश्रकम्
एतत् भगिनि
दूरे अस्ति खलु
समीपं समीपम् आसीत् खलु
हस्तं समीपम् एतत् किम् एतत् मिश्रकम् एतत् किम् एतत् व्याकरणम् व्याकरणम् इत्युक्ते किं महोदय
सीज़निङ्ग् टापिङ्ग्स्
साल्ट्
अण्ड् पेप्पर् इति अस्ति खलु
तत् किं तत् युतकम् एतत् किम् एतत् दन्तफेनकम् तत् किं तत् रेलयानम् एतत् किम् एतत् वनम् तत् किं तत् कङ्कतम् एतत् किम् एतत् कङ्कणम् तत् किं तत् पत्रम्
तत् पत्रं समीचीनम्
महोदय चरणः पुल्लिङ्गशब्दः अस्ति खलु
चरणः पुल्लिङ्ग अपि अस्ति चरणम् इति नपुंसकलिङ्गरूपम् अस्ति
अस्तु एतत् वदामि
एतदपि वदामि
एतत् किम् एतत् सङ्गणकम्
एतत् सङ्गणकं समीचीनं भगिनि धन्यवादः
धन्यवादः
अग्रे राममोहन् महोदय अस्ति वा
नमस्कारः महोदय
नमस्कारः महोदय
तत् किं तत् पत्रम् एतत् किम् एतत् कङ्कणम् तत् किं तत् कङ्कतम् एतत् किम् एतत् वनम् तत् किं तत् रेलयानम् एतत् किम् एतत् दन्तफेनकम् तत् किं तत् युतकम् एतत् किम् एतत् व्याकरणम्
समीचीनं भगिनि महोदय क्षमतां समीचीनं महोदय अग्रे क्षमा भगिनी अस्ति वा एकनिमिषं भगिनि क्षमा भगिनि
नमस्ते
नमस्कार भगिनि
एतत् मिश्रकम्
समीचीनम्
एतत् गृहम्
प्रश्नः अपि पृच्छतु अनन्तरम्
एतत् किम् एतत् गृहम् एतत् किम् एतत् सः सोरि तत् किं तत् उदग्रयाणम् उदग्रयाणम्
समीचीनम् उदग्रयाणं समीचीनम्
तत् किं तत् पेषकम् तत् किं तत् चरणम् तत् किं तत् भोजनगृहम् किं तत् उपनेत्रम् एतत् किम् एतत् नाणकम् एतत् किम् एतत् फेनकम्
भगिनी अत्र दूरमस्ति हस्तः दूरमस्ति
तत् किं तत् फेनकम् एतत् किम् एतत् पयोहिमम् तत् किं तत् भोजनम्
समीचीनं भगिनि अस्तु धन्यवादः अग्रे सीतालक्ष्मी भगिनी अस्ति वा
आं महोदय अस्मि
भगिनी एतत् कुर्वन्तु
एतत् किम् एतत् आम्रफलम् तत् किं तत् कदलीफलम् तत् किं तत् नारङ्गफलम् एतत् किम् एतत् द्राक्षाफलम्
समीचीनं बहु समीचीनं
तत् किं तत् सेवफलम् एतत् किम् एतत् नगरम् एतत् किम् एतत् द्वारम् एतत् किम् एतत् वातायनम् तत् किं तत् जलम् एतत् किम् एतत् पत्रम् एतत् किम् एतत् पर्णम् एतत् किम् एतत् दलम् तत् किं तत् पुष्पम्
समीचीनं भगिनि
धन्यवादः
धन्यवादः अस्तु अग्रे अर्चना भगिनी अस्ति वा
हलो नमस्कारः महोदय
नमस्कारः भगिनी
तत् किं तत् पुष्पं तत् किं तत् तत् उरुकम्
तत् भगिनी अत्र तत् नास्ति
एतत् किम् एतत् व्यजनं तत् किं तत् नेत्रं तत् नयनं तत् किं तत् तत् लोकयानम् तत् किं तत् पुस्तकं
समीचीनं
तत् किं तत् विमानं
समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे अर्जुन् महोदय अस्ति वा अर्जुन् महोदय महोदय नास्ति अत्र समीचीनम् अस्तु सो वाट् विल् डू इस् विल् ट्रै टु प्राक्टिस् द एक्ससैजस् दट् आर् गिवेन् हियर् इन् द अभ्यासपुस्तकम् अस्तु अभिषेक् महोदय
आं महोदय
एतत् अभ्यासम् एकवारं कृपया कुर्वन्तु
एतत् पुस्तकं तत् गृहम् एतत् छत्रं तत् फलम् एतत् पुष्पं तत् कृष्णफलकम्
कृष्णफलकं कृष्णफलकम् इत्युक्ते
ब्लाक्बोर्ड्
समीचीनं महोदय
एतत् एतत् उपनेत्रम्
उपनेत्रम्
उपनेत्रम् तत् दूरदर्शनम्
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 समीचीनं महोदय
तत् दूरदर्शनम्
तत् दूरदर्शनम् अस्तु महोदय धन्यवादः So these forms are essentially that are available here are Napunsakalinga forms. So next one is essentially the feminine gender. Feminine gender we will see here in this form, Yesha or Sa. Yesha or Sa is what we will see. Yesha is for something that is nearby. Sa that is something that is far away. So Yesha is for feminine gender which is nearby. Esha ka, ka will become the question. Esha ka, sa ka. So if you have to ask the question in the feminine gender, it will become Esha ka and sa ka. Esha ka means something that is nearby. Esha ka. Sa ka is something that will become something that is far away. Sa sandhya. Right? Esha ka, esha sita, sa ka, sa sandhya. Astu? So that is how this will be pronounced in the feminine gender. Esha, something that is nearby. Sa, that is something that is far away. So, agree, Sudhindra Mohdaya, can you please do this exercise?
Astu. Esha. का एषा सीता एषा का एषा बालिका एषा का एषा नलिनी सा का सा संध्या सा का सा वृद्धा सा का सा सावित्री Mahodaya, not able to see the next page.
Sorry, Sudhindra Mahodaya, just lost you.
Okay. I can repeat?
Yeah, please repeat.
Esha ka Esha Sita. Esha ka Esha Balika. Esha ka Esha Nalini. Sa ka sa sandhya. Sa ka sa vrudha. Sa ka sa savitri.
Astu, samichinam mohdaya, samichinam.
Dhanyavada.
Dhanyavada. So, we will also try to practice this. So, balakaha. Balakaha, is it masculine or feminine or neuter?
Masculine.
Balaka, masculine. So how do we refer something that is nearby and something that is far away?
Yeshah
balakah sah balakah. Similarly for balika,
समीचीनम्
एण्ड् सिंहः सिंहः
सो इट् इस् वन् क्विक् क्वश्चन् इन् केस् आफ़् फेमिनिन् लैक् वेन् वि यूस् द वर्ड् क ऐ मीन् सोरि वेन् वि यूस् द अल्फाबेट् क एट् दट् टैम् इट् इस् नाट् कः इट्स् का रैट्
Yes, sa ka sa balika.
Yeah.
Esha ka esha balika.
Yeah, okay. So it's ka, not ka ha.
Ka ha na. Ka. Esha ka. So you see this a here, right?
Yeah.
That is what is being appended. A. Esha ka esha balika.
Yeah. Thank you.
अस्तु महोदय. सिमिलर्ली सिंह, सिंह इज बेसिकली पुंलिङ्गशब्दः एण्ड् इट् इस् मास्कुलैन् जेण्डर्. इट् विल् बिकम् एषः सिंहः सः सिंहः. सिमिलर्लि वानरः, वानरः इस् एसेन्शियलि अगेन् मास्कुलैन्. इट् विल् बिकम् एषः वानरः सः वानरः. सो ऐ विल् गिव् यू सम् वर्ड्स्, ऐ विल् प्रोनौन्स् सम् वर्ड्स्, प्लीस् ऐडेण्टिफै वेदर् यु इट् इस् कमिङ्ग् अण्डर् मास्कुलैन् आर् फेमिनैन्. सो गजः and how do we refer something that is nearby, an elephant that is nearby and an elephant that is far away?
एषः
गजः सः गजः. समीचीनं. मयूरः
पुल्लिङ्गः.
एषः
मयूरः.
सः मयूरः.
लता.
एषा लता.
एषा लता.
शाटिका.
एषा शाटिका.
शाटिका. एषा शाटिका.
समीचीनं. पेटिका.
स्त्रीलिङ्गशब्दः. एषा पेटिका.
समीचीनं. छात्रा.
स्त्रीलिङ्गशब्दः.
एषा, एषः न, एषा छात्रा, सा छात्रा.
एषा छात्रा.
सा छात्रा. पत्रिका.
स्त्रीलिङ्गशब्दः. एषा पत्रिका, सा पत्रिका.
वृधा.
सा वृद्धा. एषा वृद्धा.
वृद्धः. वृद्धः
पुल्लिङ्गशब्दः. सः वृद्धः.
तरुणः
पुल्लिङ्गशब्दः.
तरुणः.
एषः.
मीनः
पुल्लिङ्गः. एषः मीनः. सः मीनः.
मकरः.
एषः मकरः. सः मकरः.
सः मकरः.
समीचीनं. शुकः.
एषः शुकः. सः शुकः.
विमानम्. लोकयानं.
नपुंसकलिङ्गः.
भवनम्.
एतत् भवनं. तत् भवनं.
व्यजनं.
नपुंसकलिङ्गः.
जलम्.
नपुंसकलिङ्गः. एतत् जलं. तत्
जलम्.
अश्वः.
एषः अश्वः. सः
अश्वः.
सः अश्वः. अध्यापकः.
एषः अध्यापकः. सः
अध्यापकः.
सः अध्यापकः. अस्तु. अग्रे दुग्धम्.
तत् दुग्धं. तत् दुग्धम्.
अस्तु अस्तु महोदय. अस्तु भगिनी. सो ऐ विल् आस्क् सम् आफ् यू रेण्डम्ली, देन् वि विल् ट्रै टु प्राक्टिस् दिस्. सो फस्ट् प्रथमं कृष्णमूर्ति महोदय.
आं महोदय.
हरिणः. प्लीस् ऐडेण्टिफै द फार्म् अण्ड् आल्सो रेफर् टु देम् नियर् बै अण्ड् फार् अवे.
हरिणः इस् पुंलिङ्गः.
समीचीनं
सः कः एण्ड् एषः कः
एण्ड् वट् वुड् बि दि आन्सर् सः कः एषः कः
प्लीस् गिव् मि द वर्ड् अगेन् सोरि
हरिणः
सः कः सः हरिणः एषः कः एषः हरिणः
भल्लूकः
पुंलिङ्गशब्दं सः कः सः भल्लूकः एषः कः एषः भल्लूकः
दण्डः
अगेन् पुंलिङ्गः सः कः सः दण्डः एषः कः एषः दण्डः
उद्यानं
नपुंसकलिङ्गम्
प्रश्नः पृच्छतु
तत्
तत् किं
तत् किं तत् किं तत् दण्डम्
उद्यानम् उद्यानं दण्डं न उद्यानम्
Maybe I need a dandam.
Na chinta mastu mohade chinta mastu ya vadatu
tat kim tat udyanam etat kim etat udyanam
patram
patram again neutral
tat
kim tat patram etat kim एतत् पत्रं
गृहम्
अगेन् न्यूट्रल् तत् किं तत् गृहम् एतत् किम् एतत् गृहम्
उपनेत्रम्
तत् किं तत् उपनेत्रम् एतत् किम् एतत् उपनेत्रम्
समीचीनं महोदय धन्यवादः
धन्यवादः
अस्तु महोदय अग्रे शुभा भगिनी अस्ति वा
अस्ति महोदय
भिक्षुकः भिक्षुकः
एषा किम् एषः कः एषा भिक्षुकः सः
एषः भगिनी एषः
एषः
केन् यू प्रोनौन्स् इट् फैव् टैम्स् प्लीस् प्रोनौन्स् इट् फैव् टैम्स्
एषः 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 एषः
अस्तु एषः
एषः कः एषः भिक्षुकः
समीचीनं
कः सः भिक्षुकः
नृपः
एषः कः एषः नृपः सः कः सः नृपः
अध्यापकः
वन्स् अगेन् प्लीस्
अध्यापकः
अध्यापकः एषः कः एषः अध्यापकः सः कः सः अध्यापकः
शुकः
एषः कः एषः शुकः सः कः सः शुकः
चन्द्रः
एषः कः एषः चन्द्रः सः कः सः चन्द्रः
मन्दिरम्
एतत् एतत् किम् एतत् मन्दिरम्
एतत्
एतत् किम् एतत् मन्दिरं तत् किम्
आं भगिनि सो वेन् यु आर् सेङ्ग् एतत् किम सो वेन् यु से किम वाट् विल् हेपन् इस् यु आर् ट्रैङ्ग् टु प्रोनौन्स् द म फुल्लि सो वी हाव् हलन्तं फार् म इट् आं भगिनि सो इट् विल् बिकम् किम् ओन्लि So there is a difference in way we pronounce Sanskritam letters, okay?
Etat kim? Etat mandiram.
Again, no, no. Ek nimsham, ek nimsham. Etat na, etat. Again, that ta is again halantam. So you should not pronounce it fully.
Okay. Etat kim? Etat mandiram. Mandiram.
Mandiram.
Mandiram. Etat kim? Etat mandiram. Tat kim? Tat mandiram.
Bhavanam.
Etat kim? Etat bhavanam. Tat kim? Tat bhavanam.
Lokayanam.
Etat kim? Etat lokayanam. Tat kim? Tat lokayanam.
Samichinam bhagini. Po samichinam. Dhanyavadah. Agre Nayana bhagini.
Yes, Mahoday.
Suryaha.
Suryaha. Purling?
Pumling, samichinam.
Okay. Saha kaha? Saha? Suryaha. Esha kaha? Esha? Suryaha.
One, Bhagini, when you are saying Esha, please also around, associate Aha at the end. Esha.
Esha kaha. Esha suryaha. Saha kaha. Saha suryaha.
Samichinam. Bidalaha.
Bidalaha. Saha kaha. Saha bida laha. Eshaha kaha. Eshaha bida laha.
Musha kaha.
Musha kaha. Saha kaha. Saha musha kaha. Eshaha kaha. Eshaha musha kaha.
Parnam.
Parnam. Tat kim tat parnam. Etat kim etat parnam.
Phalam.
Phalam.
Pa bhagini. It is not pa, it is pa. Pa.
Pa phalam. Tat kim tat phalam. Etat kim etat phalam.
Relayanam.
Relayanam. Tat kim tat relayanam. Etat kim etat relayanam.
Balakaha.
Balakaha. Sahakaha. Saha balakaha. Eshah kaha. Eshah balakaha.
Chashakah.
Chashakah. Sahakah. Saha cheshakah. Eshah kim.
Eshah kaha.
Eshah kaha. Eshah. I forgot the name.
Chashakah. Chashakah.
Eshah. Chashakah.
Samichinam bhagini. Samichinam. Bahu samichinam. Dhanyavadah.
Dhanyavadah.
Agre. Kshama bhagini. Kshama bhagini asti va?
Aam. Aam.
Astu bhagini. Vanarah.
Saha kaha. Saha vanarah. Eshah kaha. Eshah vanarah.
Nayanam.
Tat. Kim. Tat. Nayanam. Etat kim etat nayanam.
Sopanam.
Tat kim tat sopanam. Etat kim etat sopanam.
Udhyanam.
Tat
किं तत् उद्यानम् एतत् किम् एतत् उद्यानम्
मयूरः
सः कः सः मयूरः एषः कः एषः मयूरः
भिक्षुकः
सः कः सः भिक्षुकः एषः कः एषः भिक्षुकः
अश्वः
सः कः सः अश्वः एषः कः एषः अश्वः
अध्यापकः
सः कः सः अध्यापकः एषः कः एषः अध्यापकः
पर्णम्
तत् किं तत् पर्णम् एतत् किम् एतत् पर्णम्
समीचीनं भगिनि, बहु समीचीनम्. अस्तु, धन्यवादः. अग्रे किशोर् महोदय.
यस् सर्.
शुकः
पुल्लिङ्ग्. सः कः सः शुकः एषः कः एषः शुकः
कुकुरः
सोरि
कुकुरः
पुल्लिङ्ग्. सः कः सः कुकुरः एषः कः एषः कुकुरः
घटः
पुल्लिङ्ग्. सः कः सः घटः एषः कः एषः घटः
विमानम्
नपुंसक तत् किं तत् विमानम् एतत् किम् एतत् विमानम्
सङ्गणकम्
नपुंसक एतत् सङ्ग एतत् कः एतत् न सोरि एतत् किम् एतत् वाट् वास् देट्
सङ्गणकम्
एतत् सङ्गणकं तत् तत् किं तत् सङ्गणकं
पत्रम्
नपुंसक तत् किं तत् पत्रम् एतत् किम् एतत् पत्रम्
सूर्यः
पुल्लिङ्ग् सः कः सः सूर्यः एषः कः एषः सूर्यः
चन्द्रः
पुल्लिङ्ग् सः कः सः चन्द्रः एषः कः एषः चन्द्रः
विमानम्
नपुंसक तत् किं तत् विमानम् एतत् किम् एतत् विमानम्
बिडालः
पुल्लिङ्ग् एषः कः एषः वाट् वास् देट् सोरि विमा
विमानम्
विमानम् ओके सोरि विमानम् इस् नपुंसक सो तत् किं तत् विमानम् एतत् किम् एतत् विमानम्
बिडालः
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 बिडालः सो देट् इस्
बिडालः
बिडालः ओके सो देट् इस् पुल्लिङ्ग् सो सः कः सः बिडालः एषः कः एषः बिडालः
मकरः
मकरः अगेन् पुल्लिङ्ग् सः कः सः मकरः एषः कः एषः मकरः
सस्यं
सोरि
सस्यं सस्यं
सत्यं या देट्स् लैक् अगेन् पुल्लिङ्ग् सो सः कः सः सत्यमः एषः कः एषः सत्यमः
न सत्यं सत्यम् इस् नपुंसकलिङ्गशब्दः महोदय
सोरि ऐ जस्ट् फोगाट् सोरि या सो इट् वुड् बी तत् किं तत् सत्यम् एतत् किम् एतत् सत्यं
समीचीनं महोदय अस्तु धन्यवादः अग्रे राममोहन् महोदय
नमस्कारः महोदय
नमस्कारः मूषकः
सः कः सः मूषकः एषः कः एषः मूषकः
एषः मूषकः छात्रः
सः कः सः छात्रः एषः कः एषः छात्रः
वानरः
सः कः सः वानरः एषः कः एषः वानरः
दण्डः
सः कः सः दण्डः एषः कः एषः दण्डः
वातायनम्
वातायकम्
वातायनम् यनम्
यनम् वातायनम् ओके तत् किं तत् वातायनम् एतत् किम् एतत् वातायनम्
गृहम्
तत् किं तत् गृहम् एतत् किम् एतत् गृहम्
उद्यानम्
तत् किं तत् उद्यानम् एतत् किम् एतत् उद्यानम्
सोपानम्
तत् किं तत् सोपानम् एतत् किम् एतत् सोपानम्
अश्वः
सः कः सः अश्वः एषः कः एषः अश्वः
वृक्षः
सः कः सः वृक्षः एषः कः एषः वृक्षः
शुकः
सः कः सः वृक्षः
शुकः शुकः
सारि सारि सः कः सः शुकः एषः कः एषः शुकः
पर्णम्
तत् किं तत् पर्णम् एतत् किं तत् एतत् पर्णम्
पुष्पम्
तत् किं तत् पुष्पम् एतत् किम् एतत् पुष्पम्
समीचीनं महोदय समीचीनम् अग्रे वीणा भगिनी
नमस्ते अस्तु अस्तु महोदय
गृहं
गृहं नपुंसकलिङ्गशब्दः तत् किं तत् गृहम् एतत् गृहम्
मन्दिरं
मन्दिरं पुनः नपुंसकलिङ्गशब्दः एतत् किं तत् किम्
उत्तरमपि वदतु भगिनि
तत् गृहम् एतत् गृहम्
मन्दिरम्
एतत् मन्दिरस्य मन्दिरम्
गजः
गजः पुल्लिङ्गशब्दः एषः कः सः कः सः गजः एषः गजः
अश्वः
अश्वः पुल्लिङ्गशब्दः एषः कः सः कः सः गजः एषः गजः
अश्वः
अश्वः पुनः पुल्लिङ्गशब्दः एव सः कः एषः कः सः अश्वः एषः अश्वः
वातायनम्
वातायनं नपुंसकलिङ्गशब्दः एतत् किं तत् किम् एतत् वातायनं तत् वातायनम्
समीचीनं भगिनि
धन्यवादः
अग्रे सीतालक्ष्मी भगिनी
अस्मि
सोपानम्
सोपानं नपुंसकलिङ्गः शब्दः तत् तत् किं तत् सोपानम् एतत् किम् एतत् सोपानम्
गजः
गजः पुल्लिङ्गः शब्दः सः कः सः गजः एषः कः एषः गजः
भल्लूकः
भल्लूकः पुल्लिङ्गः शब्दः सः कः सः भल्लूकः एषः कः एषः भल्लूकः
वातायनम्
वातायनं नपुंसकलिङ्गशब्दः तत् किं तत् वातायनम् एतत् किम् एतत् वातायनम्
गृहं
गृहं नपुंसकलिङ्गशब्दः तत् किं तत् गृहम् एतत् किम् एतत् गृहम्
रेलयानम्
रेलयानं तत् किं तत् रेलयानम् एतत् किम् एतत् रेलयानम्
छत्रम्
छत्रम् तत् किम् तत् छत्रम् एतत् किम् एतत् छत्रम्
समीचीनं भगिनि
धन्यवादः
अस्तु भगिनि अग्रे कृष्णमूर्ति महोदय
आम् महोदय
वानरः
पुंलिङ्गम् एषः सः एषः कः एषः वानरः सः कः सः वानरः
छात्रः
सर् प्लीस् रिपीट् बिकास् ऐ कुण्ट् हियर् प्रोपर्ली
छात्रः
सः कः सः छात्रः एषः कः एषः छात्रः
चषकः
सः कः सः चषकः एषः कः एषः चषकः
उद्यानम्
तत् किं तत् उद्यानम् एतत् किम् एतत् उद्यानम्
सोपानम्
तत् किं तत् सोपानम् एतत् किम् एतत् सोपानम्
गृहम्
तत् किं तत् गृहम् एतत् किम् एतत् गृहम्
मन्दिरम्
तत् किं तत् मन्दिरम् एतत् किम् एतत् मन्दिरम्
शुकः
सः कः सः शुकः एषः कः एषः शुकः
मयूरः
सः कः सः मयूरः एषः कः एषः मयूरः
पुष्पम्
तत् किं तत् पुष्पम् एतत् किम् एतत् पुष्पम्
अस्तु महोदय बहु समीचीनं धन्यवादः
धन्यवादः महोदय
अग्रे सुचेता भगिनी सुचेता भगिनी अस्ति वा अस्तु अर्चना भगिनी
yes, yes,
अस्तु गृहं
तत् किं तत् गृहम् एतत् किम् एतत् गृहम्
नेत्रम्
किं तत् नेत्रम् एतत् किम् एतत् नेत्रम्
विमानम्
तत् किं तत् विमानम् एतत् किम् एतत् विमानम्
दण्डः
सः कः सः दण्डः एषः कः एषः दण्डः
बालकः
सः कः सः बालकः एषः कः एषः बालकः
वानरः
सः कः सः वानरः एषः कः वानरः
मकरः
सोरि महोदय ऐ डिडन्ट हियर दट
मकरः मकरः
मकरः
मकरः क्रोकोडैल् मकरः
ओके ओके सः कः सः मकरः एषः कः एषः मकरः
मीनः
Sorry, voice is breaking over there, so I just, I didn't hear it.
Meenaha, meenaha.
Got it. Saha kaha, saha meenaha. Eshaha kaha, eshaha meenaha.
Bhavanam. Bhavanam. Bhagini?
Bad signal. Hello? Sorry, Mother, lost connection. Please repeat.
Bhavanam.
Tat kim tat bhavanam. Etat kim etat bhavanam.
अस्तु भगिनी, समीचीनं, बहु समीचीनं, धन्यवादः.
थैंक यू.
अस्तु, अग्रे अरुण महोदय.
हा महोदय.
लोकयानम्.
नपुंसक. तत् किं तत् लोकयानम्. एतत् किं एतत् लोकयानम्.
विमानम्.
नपुंसक. तत् किं तत् विमानम्. एतत् किं एतत् विमानम्.
उपनेत्रम्.
नपुंसक. तत् किं तत् उपनेत्रम्. एतत् किं एतत् उपनेत्रम्.
बालकः.
पुल्लिङ्ग. सः कः सः बालकः. एषः कः
बालकः.
बालकः. एषः कः एषः बालकः. एषः बालकः.
रामः.
पुल्लिङ्ग. सः कः सः रामः. एषः कः एषः रामः.
कृष्णः.
सः कः सः कृष्णः. एषः कः एषः कृष्णः.
भीमः.
पुल्लिङ्ग. सः कः सः भीमः. एषः कः एषः भीमः.
भीष्मः.
पुल्लिङ्ग. सः कः सः भीष्मः. एषः कः एषः भीष्मः.
पत्रम्.
नपुंसक. तत किं तत पत्रम्. एतत् किं एतत् पत्रम्.
चक्रम्.
नपुंसक. तत किं तत चक्रम्. एतत् किं एतत् चक्रम्.
Mahodaya, you are pronouncing etat correctly. Tata is pronounced as tata. It is not tata. The correct pronunciation should be tata. Because the last tata in the tata is half only. It is halantam. So it is called as half. We have to pronounce it for half the time what we pronounce it for the full tata. So it will become tat.
So it is tat.
Tat, Mahodaya. Yes, tat. Etat, tat.
Etat. तत् ओके.
आम् समीचीनं. उपनेत्रम्.
उपनेत्रं. नपुंसक. तत् किं तत् उपनेत्रम्. एतत् किं.
न महोदय, अगेन् यु आर् गोयिङ्ग् फार् तत्. प्रोनौन्स् तत् फैव् टैम्स्. से तत् फैव् टैम्स्.
तत् 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 किं तत् उपनेत्रम्. एतत् किम् एतत् उपनेत्रम्. तत् एतत्.
समीचीनम्. वातायनम्.
नपुंसक. तत् किं तत् वातायनम्. एतत् किम् एतत् वातायनम्.
सोपानम्.
नपुंसक. तत् किं तत् सोपानम्. एतत् किम् एतत् सोपानम्.
चषकः.
पुल्लिङ्ग. सः कः सः चषकः. एषः कः एषः चषकः.
समीचीनं महोदय, बहु समीचीनम्. अस्तु, धन्यवादः. सुधीन्द्रमहोदय. उद्यानम्
न्यूट्रल् जेण्डर्. तत् किं? तत् उद्यानम्. एतत् किम्? एतत् उद्यानम्.
रामः
पुंलिङ्गः जेण्डर्. सः कः? सः रामः. एषः कः? एषः रामः.
वरुणः
पुंलिङ्गः. सः कः? सः वरुणः. एषः कः? एषः वरुणः.
दुर्योधनः
पुंलिङ्गः. सः कः? सः दुर्योधनः. एषः कः? एषः दुर्योधनः.
लेखनम्
न्यूट्रल् जेण्डर्. तत् किं? तत् लेखनम्. एतत् किम्? एतत् लेखनम्.
उपनेत्रम्
न्यूट्रल् जेण्डर्. तत् किं? तत् उपनेत्रम्. एतत् किम्? एतत् उपनेत्रम्.
कङ्कणम्
न्यूट्रल् जेण्डर्. तत् किं? तत् कङ्कणम्. एतत् किम्? एतत् कङ्कणम्.
पुस्तकम्
न्यूट्रल् जेण्डर्. तत् किं? तत् पुस्तकम्. एतत् किम्? एतत् पुस्तकम्.
सिंहः
पुंलिङ्गः. सः कः? सः सिंहः. एषः कः? एषः सिंहः.
गजः
पुल्लिङ्गः. सः कः? सः गजः. एषः कः? एषः गजः.
कदलीफलम्
न्यूट्रल् जेण्डर्. तत् किं? तत् कदलीफलम्. एतत् किम्? एतत् कदलीफलम्.
बिडालः
पुल्लिङ्गः. सः किं? सः कः? सः बिडालः. एषः कः? एषः बिडालः.
समीचीनं भगिनि, समीचीनं महोदय, बहु समीचीनं, धन्यवादः. अस्तु, स्थगामः अद्य. विल् स्टाप् हियर् टुडे. पुनः मिलामः. अस्तु, प्रश्नमस्ति चेत् पृच्छतु. इफ् यु हाव् एनी क्वश्चन्स् प्लीस् आस्क्. Astu, if there are no questions, then we'll stop today. See you tomorrow, see you next week. Thank you, everybody. Dhanyavadaha.
Dhanyavadaha, Mahodaya.
Dhanyavadaha, Mahodaya.
Dhanyavadaha,
Mahodaya.
Shubharatrihi.
Shubharatrihi.
Shubhadinam.
Good night.